మధ్యమ నికాయం 2.5.8 వాసెట్ సుత్తం ఏవం మే సుతం ఏకం సమయం భగవా ఇచ్ఛానంగలే విహరతి ఇచ్ఛానంగలవనసండే తేన కోపన సమయేన సంబహులా అభిజ్ఞాత అభిజ్ఞాత బ్రాహ్మణ మహాశాల ఇచ్ఛానంగలే పటివసంతి సేయతీదం సంఖీ బ్రాహ్మణో తారుఖో బ్రాహ్మణో పొంఖర సాథి బ్రాహ్మణో జానుసోని బ్రాహ్మణో తోదేయో బ్రాహ్మణో అన్యోచ అభిజ్ఞాత అభిజ్ఞాత బ్రాహ్మణ మహాశాల అథ కోవాసిట్ భారద్వాజానం మానవానం జంఘా విహారం అనుచంకమమానానం అనువిచరమానానం అయమంతరా కథా ఉదపాది కథం భో బ్రాహ్మణోతి భారద్వాజో మానవో ఏవ మాహ యతోఖో భో ఉభతో సుజాతోతి మాతితో చ పితితో చ సంశుద్ధగాని కోయావ సంతమా పితామహయుగా అంకితో అనుపంకుంఠో జాతివాదేన ఇంతావతాఖో భో బ్రాహ్మణోతీతి వాసిఠో మానవో ఏవ మాహ యతోఖో భో శీలవాచ హోతి వత సంపన్నో చ ఇంతావతాఖో భో బ్రాహ్మణో హోతీతి నేవఖో అసంఖి భారద్వాజో మానవో వాసిఠం మానవం సంజ్ఞాపేతుం న పన అసంఖి వాసిఠో మానవో భారద్వాజం మానవం సంజ్ఞాపేతుం అథ ఖో వాసిఠో మానవో భారద్వాజం మానవం ఆమంతేసి అయం ఖో భో భారద్వాజ సమనో గౌతమో సంఖ్య పుత్తో సంఖ్య కులాపంబజితో ఇచ్ఛానంగలే విహరతి ఇచ్ఛానంగలవన సందే తంఖోపన భగవంతం గౌతమం ఏవం కళ్యాణో కీర్తి సందో అంభుంగతో ఇతి పిశో భగవార్హం సమ్మా సంబుద్ధు విద్యాచరణ సంపన్నో సుగతో లోకవిదు అనుత్తరో పురిషదమ్మ సారథి సత్తా దేవ మనుసానం బుద్ధో భగవతి आयाम भो भारद्वाज येन समनो गौतमो तेनुपसंकमिंसाम उपसंकमित्वा समनं गौतमं एतमत्थं पुञ्छिंसाम यथा नो समनो गौतमो व्याकरिष्यति तथा नं धारिष्यामाति एवं भूतिको भारद्वाजो मानवो वासिष्ठस्य मानवस्य पच्छस्योऽसि अथ को वासिष्ठ भारद्वाजा मानवा येन भगवा तेनुपसंकमिंसु उपसंकमित्वा भगवता सन्धिं सम्मोदिंसु सम्मोदनीयं कथं सारणीयं वीति सारित्वा एकमन्तं निषेदिंसु एकमन्तं निषिन्नोखो वासिष्ठो मानवो भगवन्तं गाथा ह्यञ्जभासि अनुज्ञातपटिज्ञाता ते विञ्जामयमस्सुभो अहं पुङ्करसातिस्स तारुङ्खस्सायं मानवो ते विज्जानं यदङ्खातं तत्थ केवलिनोऽस्मसे पदकस्मा व्याकरणा जपे आचार्य सादिसा ते संनो जातिवादस्मिं विवादो अन्ति गौतम जातिया ब्राह्मणो होति भारद्वाजो इति भासति अहं च कम्मना ब्रूमि एवं जानाहि चक्षुम तेन सकोम ज्ञापेतुम् अन्यमन्यं मयं उभो भगवन्तं पुण्ठुमागम्म सम्बुद्धं इति विस्सुतं छन्दं यथा खयातीतं पिच्चपञ्जलिका जना वन्दमाना नमस्सन्ति एवं लोकस्मिं गौतम चक्खुं लोके समुपन्नं मयं पुञ्छाम गौतमं जातिया ब्राह्मणो होति उदाहु भवति कम्मना अजानतं नो पब्रूहि यथा जानीमु ब्राह्मणन्ति ते संवोहं व्याचिक्षिसं वासिष्ठाति भगवा अनुपुंबं यथा तथं जातिविभंगं पानानं अन्यमन्याहि जातियो तिनरुक्खेपि जानाथ न चापि पटि जानरे लिंगं जातिमयं तेषं अन्यमन्याहि जातियो ततो कीते पटंगे च यावकुंथ किपिल्लिके लिंगं जाति मयंते सं अन्यमन्याहि जातियो चतुपदेपि जानाथ खुद्दके च महल्लके लिंगं जाति मयंते सं अन्यमन्याहि जातियो पादुदरेपि जानाथ उरगे दीघपित्थिके लिंगं जाति मयंते सं अन्यमन्याहि जातियो ततो मच्छेपि जानाथ उदके वारि गोचरे लिंगं जाति मयंते सं अन्यमन्याहि जातियो ततो पक्खेपि जानाथ पत्तयाने विहंगमे लिंगं जाति मयंते सं अन्यमन्याहि जातियो यथाएतासु जातिसु लिंगं जाति मयं पुथु एवं नत्थि मनुस्सेसु लिंगं जाति मयं पुथु न केसे न सेसे न कन्हे न अक्खि न मुखे न नासाय न उठन्ते भमुहिवा न गीवाय न अंसे न उदरे न पिंठिया न सोनिया न उरसा न संबाधे न मेथुने न हन्थे न पादे नांगुले नखे वा न जंगाहि न ऊरुहि न वन्ने न सरेन वा लिंगं जाति मयं नेव यथा अन्यासु जातिसु पच्चत्तंच शरीरेषु मनुष्यस्वेव तं न विञ्जति वोकारंच मनुष्येषु समन्याय पौञ्चति यो हि कोचि मनुष्येषु गोरखं उपजीवति एवं वा सिद्ध जानाहि कस्सकोऽसौ न ब्राह्मणो यो हि कोचि मनुष्येषु पुथुसिंहेन जीवति एवं वा सिद्ध जानाहि सिप्पिकोऽसौ न ब्राह्मणो यो हि कोचि मनुष्येषु वोहारं उपजीवति एवं वा सिद्ध जानाहि वाणिजोऽसौ न ब्राह्मणो यो हि कोचि मनुष्येषु परपिस्सेन जीवति एवं वा सिद्ध जानाहि पिस्सिकोऽसौ न ब्राह्मणो यो हि कोचि मनुष्येषु अदिन्नं उपजीवति एवं सिद्ध जानाहि चोर एष न ब्राह्मणो यो हि कोचि मनुष्येषु इच्छन्तं उपजीवति एवं सिद्ध जानाहि योधा जीवो न ब्राह्मणो यो हि कोचि मनुष्येषु पौरोहित्येन जीवति एवं सिद्ध जानाहि याजकोऽसौ न ब्राह्मणो यो हि कोचि मनुष्येषु गामं रट्ठं च भुञ्जति एवं सिद्ध जानाहि राजा एषो न ब्राह्मणो न चाहं ब्राह्मणं ब्रूमि यो निजं मत्ति संभवं भोआदीनां सोऽति सचेहोति सकिञ्चनो अकिञ्चनं अनादानं तमहं ब्रूमि ब्राह्मणं सब्बसंयोजनं चित्त्वा यो येन परितस्सति संगतिगं विसंयुतं तमहं ब्रूमि ब्राह्मणं चित्त्वानन्दिं वरतं च सन्दानं सहनुकमं उक्खित्तपलिघं बुद्धं तमहं ब्रूमि ब्राह्मणं अक्कोसं वधबन्धं च अदुत्थोयोतितिङ्खति खन्तिबलं बलानीकं तमहं ब्रूमि ब्राह्मणं अक्कोधनं वतवन्तं शीलवन्तं अनुसुदं दन्तं अन्तिमशारीरं तमहं ब्रूमि ब्राह्मणं वारिपुङ्खरपत्तेव आरङ्गेरिव सासपो यो न लिम्पति कामेषु तमहं ब्रूमि ब्राह्मणं यो दुःखस्स पजानाति इधेव खयमत्तनो पन्नभारं विसंयुतं तमहं ब्रूमि ब्राह्मणं गंभीरपञ्ञं मेधाविं मङ्गामङ्गस्स कोविदं उत्तमन्तमनुपपत्तं तमहं ब्रूमि ब्राह्मणं असंसट्टं गहट्ठेहि अनागारेहि चोभयं अनुकसारिं अपिञ्चं तमहं ब्रूमि ब्राह्मणं निधाय दण्डं भूतेषु तसेषु थावरेषु च यो न हन्ति न घातेति तमहं ब्रूमि ब्राह्मणं अविरुद्धं विरुद्धेषु अत्तदण्डेषु निम्बुतं सादानेषु अनादानं तमहं ब्रूमि ब्राह्मणं තමහං බ්‍රූමි බ්‍රාහ්මනං යස්ස පුරේච පච්චාච මද්ධේච නත්ති කිංචනං අකිංචනං අනාදානං තමහං බ්‍රූමි බ්‍රාහ්මනං උසභං පවරං වීරං මහේසින් විජිතාවිනං අනේජං නහාතකං බුද්ධං තමහං බ්‍රූමි බ්‍රාහ්මනං පුබ්බේ නිවාසං යෝවේදී සංගාපායංච පස්සති අතෝජාතික්කයං පත්තෝ තමහං බ්‍රූමි බ්‍රාහ්මනං සමඤ්ඤාහේසාලෝකස්මින් නාමගොත්තං පකප්පිතං සමුච්ච සමුදාගතං තත්ථ තත්ථ පකප්පිතං දීඝරත්ථ මනුසෛතං දිඨිගත මජානතං අජානන්තානෝ පබ්‍රුවන්ති ජාතියාහෝති බ්‍රාහ්මනෝ නජච්ඡා බ්‍රාහ්මනෝහෝති නජච්ඡාහෝති අබ්‍රාහ්මනෝ කම්මනා බ්‍රාහ්මනෝහෝති කම්මනාහෝති අබ්‍රාහ්මනෝ කස්සකෝ කම්මනාහෝති සිප්පිකෝහෝති කම්මනා වානිජෝ කම්මනාහෝති පෙස්සිකෝහෝති කම්මනා චෝරෝපි කම්මනාහෝති යෝධා ජීවෝපි කම්මනා යාජකෝ කම්මනාහෝති රාජාපි හෝති කම්මනා ඒවමේතං යථාභූතං කම්මං පස්සන්ති පණ්ඩිතා පටිච්ච සමුප්පාද දසා කම්ම විපාක කෝවිදා කම්මනාවත්තති ලෝකෝ කම්මනාවත්තති පජා කම්මනිබන්ධනා සත්තා රථස්සානීව යායතෝ තපේන බ්‍රහ්මචරීන සංයමේන දමේන ච ඒතේන බ්‍රාහ්මනෝ හෝති ඒතං බ්‍රාහ්මන මුත්තමං තීහි විඤ්ඤාහි සම්පන්නෝ සන්තෝකීන පුනම්භව එවං වාසෙට්ඨ ජානාහි බ්‍රහ්මා සක්කෝ විජානතන්ති එවං බුද්දේ වාසෙට්ඨ භාරද්වාජා මානවා භගවන්තං ඊතදවචං අභික්කන්තං භෝගතම අභික්කන්තං භෝගතම සේයථාපි භෝගතම නික්කොඤ්ජිතං වා උක්කොඤ්ජේය පටිච්චන්නං වා විවරෙය්‍ය මූලස්ස වා මග්ගං ආචික්කේය්‍ය අන්ධකාරේ වා තේල පඤ්ජෝතං ධාරෙය්‍ය චක්ඛුමන්තෝ රූපානි දක්ඛින්තේති ඒවමේවම් භෝතා ගෝතමේන අනේක පරියායේන ධම්මෝ පකාසිතෝ ඒතේ මයම් භවන්තං ගෝතමං සරණං ගච්ඡාම ධම්මං ච භික්ඛු සංඝං ච උපාසකේනෝ භවං ගෝතමෝ ධාරේතු අජ්ජතග්ගේ පානුපේතං සරණං ගතේති වාසෙට්ඨ සුත්තං අට්ඨමං.